सर्वेभ्यः अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे तत्पुरुषसमासे कर्मधारयसमासं नञ् तत्पुरुषञ्च पठामः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। दिग्वाचकानां संख्यावाचकानां च समासः कथं भवति इति ज्ञातवन्तः। आदौ मूलं पठित्वा अग्रे गच्छामः। दिक्संख्ये संज्ञायां संज्ञायाम् एव इति नियमार्थं सूत्रं पूर्वेषु कामशमी सप्तर्षयः तेन इहन उत्तरा वृक्षाः पञ्चब्राह्मणाः तद्धितार्थोत्तरपदसमाहारे च तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत् पूर्वस्यां शालायां भवः पूर्वाशाला इति समासे जाते सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः। दिक्पूर्वपदारसंज्ञायां ण्यः अस्मात् भवाद्यर्थे ण्यः स्यात् असंज्ञायां तद्धितेष्व चाम् आदेः ङीतीणिति च तद्धितेषु अचाम् आदेरसः वृद्धिः स्यात् यस्येति च पौर्वशालः। पञ्च गावः धनं यस्य इति त्रिपदे बहुव्रीहौ द्वन्द्वत्तत्पुरुषयोः उत्तरपदे नित्यसमासवचनम्। गोरतद्धितलुकि गोन्तात् तत्पुरुषात् टच् स्यात् समासान्तः न तु तद्धितलुकि। पञ्चगवधनः तत्पुरुषः समानाधिकरणः कर्मधारयः सङ्ख्यापूर्वो द्विगुः। तद्धितार्थ इत्यत्र उक्तः त्रिविधः सङ्ख्यापूर्वः द्विगुसंज्ञः स्यात् द्विगुरेकवचनम्। द्विग्वर्थः समाहारः एकवत् स्यात् स नपुंसकम्। समाहारे द्विगुः द्वन्द्वश्च नपुंसकं स्यात्। पञ्चानां गवां समाहारः पञ्चगवम्। दद्धितार्थोत्तरपदसमाहारे च सूत्रस्य अर्थं चोदाहरणं विवृणुत। दद्धितार्थे उत्तरपदे परे समाहारे च दिग्वाचकाः संख्यावाचकाश्च समस्यन्ते इति सूत्रार्थः। तत्र दिग्वाचकानां तद्धितार्थे उत्तरपदे समासः भवति। पौर्वशालः पूर्वशालाप्रियः इति उदाहरणं। समाहारे दिग्वाचकानां प्रयोगः नास्ति। सङ्ख्यावाचकानां त्रिषु अपि अर्थेषु भवति। षाण्मातुरः पञ्चगवधनः पञ्चगवम् इत्येतानि उदाहरणानि। द्विगुसमासं सोदाहरणं निरूपयत इति पृष्टे सङ्ख्यापूर्वो द्विगुः इत्यनेन तद्धितार्थोत्तरपदसमाहारे च इत्यत्र विहिते समासे यत्र सङ्ख्या पूर्वपदं भवति तत्र द्विगुः इति संज्ञा भवति इति वक्तव्यम्। ततः तेषाम् उदाहरणानि। विग्रहं प्रदर्श्य प्रक्रियां लिखत। आपरशालः उत्तरशालाप्रियः षाण्मातुरः एकगवधनः पञ्चाङ्गम्। आपरशालः अपरस्यां शालायां भवः इति भवार्थे तद्धितप्रत्ययः भवति। तत् मनसि निधाय तद्धितार्थे कर्मधारयसमासः सूत्रमस्ति तद्धितार्थोत्तरपदसमाहारे च इति। तद्धितार्थे कर्मधारयसमासः अपरा शाला इति स्थिते अपरा इत्यस्य पुंवद्भावः भवति। अपरशाला अपरशाला इत्यस्मात् दिक्पूर्वपदारसंज्ञायाम् इति ञ प्रत्ययः। आदिवृद्धिः ञित्वात् तद्धितेष्वतामादेः इत्यनेन आदिवृद्धौ आपरशाला। आपरशाला अ इति प्रत्ययः अस्ति। यस्येति च इत्यनेन आकारस्य लोपे आपरशाल सुप्रत्यये आपरशालः इति प्रक्रिया। उत्तरशालाप्रियः उत्तराशालाप्रिया यस्य सः। उत्तरा सुशालासु प्रियासु इति विग्रहे आदौ बहुव्रीहिसमासः। ततः उत्तरपदे परे उत्तराशाला एतयोः कर्मधारयसमासः। ततः उत्तरा इत्यत्र सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः। उत्तरशाला प्रिया इत्यस्ति. तत्र प्रिया इति आकारस्य ह्रस्वोरपु गोस्त्रियोरुपसर्जनस्य इत्यनेन ह्रस्वः उत्तरशाला प्रिय सु ऋत्वं विसर्गः उत्तरशाला प्रियः. षाण्मातुरः षण्णां मातॄणाम् अपत्यं षाण्मातुरः. षष् जस् मातृ जस् इति समासे तद्धितार्थे द्विगुसमासः संख्यापूर्वत्वात् अस्य द्विगुसंज्ञा भवति. षष् मातृ तत्र षष् इति षकारस्य जष्ट्वं ततः अनुनासिकः षण्मातृ इत्यस्ति. ततः मातुरुत् संख्यासम्बद्धपूर्वायाः इत्यनेन अण् प्रत्ययः मातृ इत्यस्य उर् इति आदेशः. अतः षण्मातुर् अ इति भवति. आदिवृद्धिः षाण्मातुर इति प्रातिपदिकम्. एकगवधनः अत्र एका गौः धनं यस्य सः इत्यपि वक्तुं शक्यते. एकः गौः धनं यस्य सः गोशब्दः पुल्लिङ्गे स्त्रीलिङ्गे उभयथापि अस्ति, रूपं समानम्. सामान्यतः स्त्रीलिङ्गे प्रयोगः क्रियते एका गौः इति, किन्तु पुल्लिङ्गे लिख्यते चेदपि दोषः नास्ति. एका गौः धनं यस्य सः अथवा एकः गौः धनं यस्य सः. तत्र आदौ बहुव्रीहिसमासः, उत्तरपदे परे एक गो एतयोः द्विगुसमासः. यदि आदौ स्त्रीलिङ्गं स्वीक्रियते तर्हि सर्वनाम्नौ वृत्तिमात्रे पुंवद्भावः इत्यनेन एक इति करणीयं भवति. यदि पुल्लिङ्गमेव स्वीकृतं तत्र क्लेशः नास्ति. एक गो इत्यस्ति. गोरतद्धितलुकि इत्यनेन टच् समासान्तः एक गो अ धन एचो अयवायावः इत्यनेन अवादेशे एकगवधन. पञ्चाङ्गम् पञ्चानाम् अङ्गानां समाहारः. समाहारे द्विगुसमासः. पञ्चन् अङ्ग इत्यस्ति नलोपः प्रातिपदिकान्तस्य इत्यनेन नलोपः पञ्च अङ्ग. सवर्णदीर्घः पञ्चाङ्ग. अत्र सनपुंसकम् इत्यनेन समाहारद्विगोः नपुंसकत्वं भवति. नपुंसकत्वे सति सुप्रत्ययस्य अतो अम् इत्यनेन अमादेशः. पञ्चाङ्ग अम् अमिपूर्वः इति पूर्वरूपे पञ्चाङ्गम् इति रूपम्. सन्देहः कोऽपि अस्ति वा? थियरि सुलभं, वाक्यानां रचने कश्चित् क्लेशः अनुभूतः, पश्यामः. तत्र अवगमनप्रश्नेषु द्विगुसमासस्य तत्पुरुषसंज्ञायां किं प्रयोजनम् इति पृष्टमासीत्. तत्र समासान्तः गोरतद्धितलुकि इति विहितः समासान्तः तत्पुरुषसमासस्य भवति. यदि द्विगु इति पृथक् समासः भवति तदा ते समासान्ताः तत्पुरुषसमासस्य विहिताः ये समासान्ताः ते द्विगुसमासे न भवन्ति, पुनः विधानं करणीयं भवति. अतः तत्पुरुषे ये ये समासान्ताः उक्ताः द्वे द्विगुसमासे अपि भवेयुः. तदर्थमेव द्विगुः तत्पुरुषस्य अन्तर्भेदः इति परिगणितः, न तु पृथक् समासः इति. द्विगुसमासम् उपयुज्य पञ्चवाक्यानि रचयत. प्रयत्नः सम्यगेव कृतः. कानिचन वाक्यानि पश्यामः. अग्रिमसप्ताहे मम परीक्षा भविष्यति. सप्ताहः सप्तानाम् अह्नां समाहारः सप्ताहः इति द्विगुसमासस्य उदाहरणं. समाहारे द्विगुः सप्तानाम् अह्नां समाहारः सप्ताहः इति भवति. प्रक्रियाम् अन्ते जानीमः. शिवं परिणेतुं पार्वती पञ्चाग्निमध्ये तपः आचरितवती. पञ्चाग्निमध्ये पञ्चानाम् अग्नीनां समाहारः पञ्चाग्नि इति भवति. नपुंसकत्वं तत्र सुमोर्नपुंसकादित्यनेन लोपः भवति. पञ्चाग्नि तस्य मध्ये इति पुनः समासः. पञ्चाग्नि इति समाहारद्विगुः. द्वैमातुरं वन्दे षाण्मातुरप्रीतये. द्वैमातुरः विनायकः. द्वयोः मात्रोः अपत्यं द्वैमातुरः. तं नमस्करोमि षाण्मातुरः सुब्रह्मण्यः तस्य प्रीतये इति द्वयमपि तद्धितार्थद्विगुः द्वयोः मात्रोः अपत्यम् षण्णाम् मातॄणाम् अपत्यम् उभयत्रापि अपत्यार्थे तद्धितप्रत्ययः अतः एतानि उदाहरणानि साधूनि किन्तु मध्ये मध्ये अन्यानि उदाहरणानि अपि सन्ति सप्तस्वरयुक्तम् गीतम् श्रावयति वेणुना कृष्णः तत्र सप्तस्वर इति समासः अस्ति कार्तिकेयः षण्मुखः इत्यपि प्रसिद्धः षण्मुखः इति समासः वेदे सहस्रशीर्षपुरुषस्य प्रशंसारूपा सूक्तिः विद्यते सहस्रशीर्ष एते समासाः द्विगुसमासाः वा यदि न किमर्थं न यदि आम् कथम् अत्र सर्वेषाम् अत्रैव भ्रमः भवति अत्र दोषः एव नास्ति सर्वदा सर्वेषामपि अत्रैव भ्रमः अस्माकं किं भवति यदि संख्यावाचकम् अस्ति तर्हि द्विगुसमासः इति कश्चित् संस्कारः बाल्यादपि मनसि आहितः भवति बाल्यात् संस्कृते बाल्यात् इत्यपि यदा संस्कृतं प्राथमिकस्तरे पठ्यते तदा अस्तु यत्र यत्र संख्या अस्ति तत्र द्विगुः इति मनसि कश्चित् संस्कारः भवति किन्तु तदर्थमेव सूत्रद्वारा यदा अध्ययनं क्रियते तस्य तद् प्रयोजनं किमस्ति तद्धितार्थ उत्तरपदसमाहारे तत्रैव द्विगुः अन्यत्र कुत्रापि द्विगुः नास्ति तद्धितार्थे उत्तरपदे समाहारे एव द्विगुः अन्यः समासः अस्ति चेत् सप्तस्वर तत्र कथं विग्रहः कोऽपि वदति वा सप्तस्वर इत्यत्र विग्रहः कथं भवति प्रयत्नं कुर्वन्तु भगिनि अन्यूट्
ओके सप्तस्वराः
सप्तस्वराः कथं समासः कस्मिन् अर्थे तत्र समासः
चिन्तयामि तत्र कर्मधारे वा
कर्मधारे सत्यं दिक्संख्ये संज्ञायां सप्तस्वराः इति षड्ज ऋषभ गान्धार मध्यम निषाद पञ्चम दैवत निषाद एतेषां सप्तानामेव स्वराः इति संज्ञा अतः दिक्संख्ये संज्ञायाम् इति समासः सः कः समासः कर्मधारय समासः सप्तस्वराः इति समासः साधुः समासः भवति संज्ञा अस्ति इत्यतः समासः भवति किन्तु सः द्विगुसमासः न कुतो न तत्र तद्धितार्थः नास्ति उत्तरपदं नास्ति समाहारः नास्ति अतः सप्तस्वराः इत्यत्र द्विगुसमासः न सप्तस्वराः इति यथा सप्तर्षयः तथा सप्तस्वराः इति कर्मधारय समासः षण्मुखः तत्र कथं विग्रहः सत्यं तत्र बहुव्रीहिसमासः षट् मुखानि यस्य सः षण्मुखः षट् मुखानि यस्य षट् मुखानि यस्य इति बहुव्रीहिसमासः तत्र द्विगुः नास्ति कुत्र द्विगुः भवति बहुव्रीहिसमासे यत्र त्रिपदबहुव्रीहिः पञ्च गावः धनम् इति त्रयाणां पदानां यदा बहुव्रीहिः तदा पूर्वपदं संख्यावाचकम् अस्ति चेत् तत्र द्विगुसमासः भवति केवलं द्वयोः बहुव्रीहिः यत्र अस्ति तत्र द्विगुसमासः न केवलः बहुव्रीहिः षण्मुखः षट् मुखानि यस्य इत्युक्ते केवलं बहुव्रीहिसमासः तत्र सन्देहस्य अवकाशः अस्ति यतोहि अस्माभिः उत्तरपदद्विगौ बहुव्रीहिं कृत्वा अनन्तरं द्विगुसमासः किन्तु तत्र त्रीणि पदानि निश्चयेन भवेयुः, यत्र त्रयाणां बहुव्रीहिः, तत्र अन्तिमपदे परतः पूर्वपदयोः समासः भवति चेत् सः द्विगुसमासः, उत्तरपदद्विगुः। अत्र तु तथा नास्ति, अतः षण्मुखः इति केवलः बहुव्रीहिसमासः, समासः शुद्धः किन्तु द्विगुसमासः न। समानरीत्या सहस्रशीर्षा पुरुषः, सहस्रं शीर्षाणि यस्य सः सहस्रशीर्षा, अत्रापि बहुव्रीहिसमासः, तत्र द्विगुसमासः नास्ति। द्विगुसमासः कुत्र भवति? यत् केवलं संख्यावाचकमस्ति चेत् द्विगुः इति न, संख्यावाचकं भवेत् तेन सह समाहारः भवेत्। समाहारः सुलभः, यत्र समूहः इत्युच्यते समाहारः। उत्तरपदम् अर्थात् त्रिपदबहुव्रीहिः अस्ति चेत् अथवा तद्धितार्थः, तद्धितार्थः अवगन्तुं किञ्चित् क्लिष्टं, तथापि यत्र विग्रहवाक्ये विशिष्टः अर्थः अस्ति, षण्णां मातॄणाम् अपत्यम्, अपत्यार्थः तत्र तद्धितप्रत्ययस्य अर्थः। एवमेव पूर्वस्यां शालायां भवः, भव इति तद्धितार्थः, अत एव तद्धितार्थद्विगुः इति उच्यते। एतत् किमपि नास्ति चेत्, तद्धितार्थः उत्तरपदं समाहारो वा नास्ति चेत् सः द्विगुसमासः न। अस्माकं सामान्यव्यवहारे वस्तुतः समाहारद्विगोः एव प्रयोगं वयं कुर्मः, तद्धितार्थद्विगोः उदाहरणानि विरलानि, सामान्यतः उपयोगे न भवन्ति। उत्तरपदद्विगुः अपि विरलः, अतः यत्र समाहारार्थः अस्ति तत्र द्विगुः, अन्यत्र अर्थं विचिन्त्य एव तत्र समासः ज्ञातव्यः। विशिष्य बहुव्रीहौ सन्देहः मास्तु, केवल बहुव्रीहिः भवितुम् अर्हति। So 80% of cases where we see a sankhyavachaka pada, they are all bahuvrihi samasa. Samanyatah bahuvrihi eva adhikaha. Ataha yatra yatra sankhya tatra tatra dviguhu iti nasti, sa vyaptihi na yujyate. Yatra sankhyavachakam purvapadam asti, tadhitarthaha uttarapadam samaharahava asti, tatra eva dviguhu. स्पष्टं? सन्देहाः सन्ति वा? अपत्यार्थं विहाय अन्य तद्धितार्थेषु कथं द्विगुसमासः भवति? तदेव तद्धितस्य एकं तु अस्ति भवार्थे तद्धितः, पूर्वस्यां शाला भवः, एवम् अन्यत्र संख्यावाचकं पदम् उपयुज्य किमपि कुर्मः चेत् भवितुम् अर्हति, किन्तु तद्धितार्थेषु स एव क्लेशः। किमित्युक्ते यत्र विशिष्य प्रत्ययः अस्ति तत्रैव कर्तुं शक्यते, सामान्यतः तद्धितस्य एवं प्रयोगः न भवति। अहं दृष्ट्वा वदामि अन्यानि उदाहरणानि तद्धितार्थद्विगोः, किन्तु सामान्यतः तत्र किं पदानाम् उत्पत्तिः कठिनं, समाहारद्विगोः उपयोगः सर्वत्र कर्तुं शक्यते। स्पष्टं वा कुत्र द्विगुः द्विगुसमासस्य उपयोगः? अग्रे गच्छामः। अग्रे कर्मधारयसमासः, अस्माभिः तत्पुरुषसमासे सामान्यतत्पुरुषः दृष्टः, द्वितीयातः आरभ्य सप्तमीपर्यन्तम्, अनन्तरं द्विगुसमासः दृष्टः, तत्रैव पूर्वं किञ्चिदिव कर्मधारयसमासः दृष्टः। कर्मधारयः नाम कः इत्यपि ज्ञातं, तत्पुरुषः समानाधिकरणः कर्मधारयः। यत्र यत्र तत्पुरुषसमासे पूर्वोत्तरपदयोः समानाधिकरण्यं भवति सः समासः कर्मधारयसमासः। कर्मधारयसमासविधायकानि बहूनि सूत्राणि सन्ति, तत्र दिक्संख्येसंज्ञायाम् इत्यनेनापि कर्मधारयः एव विधीयते। तद्धितार्थोत्तरपदसमाहारे च इत्यत्र दिग्वाचकानां यः समासः सोऽपि कर्मधारयः, किन्तु कर्मधारयसमासविधायकं स सामान्यं सूत्रं इदं भवति विशेषणं विशेष्येण बहुलम्। विशेषणम् इति प्रथमान्तं, विशेष्येण इति तृतीयान्तं, बहुलम् इति बहुलग्रहणं प्रथमाविभक्तौ, समानाधिकरणेन इति तृतीयान्तम् अनुवर्तते, सुप् सुपासः समासः इत्यादि सर्वम् अनुवर्तते। इदं विधिसूत्रं कर्मधारयसमासः अनेन विधीयते। कर्मधारयसमासस्य सामान्यसूत्रम् इदमेव, विशेषणं विशेष्येण बहुलम्। भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत् इति सूत्रार्थः। विशेषणम् इत्यस्य भेदकम् इति पदम् उपयुज्यते, विशेष्यं भेद्यम् इत्युच्यते। किं कः अर्थः भेदकं भेद्यम् इति? भेदः सेपरेट्, व्यावर्तकम् इत्यपि उच्यते। विशेषणेन किं क्रियते? यत्र बहूनि वस्तूनि सन्ति तत्र, यथा पुस्तकमस्ति, एकं नीलवर्णस्य एकं पुस्तकमस्ति, कृष्णवर्णस्य एकं पुस्तकमस्ति, रक्तवर्णस्य पुस्तकं, पीतवर्णस्य पुस्तकम् इत्यादि बहूनि पुस्तकानि सन्ति। सर्वमपि पुस्तकशब्देन उच्यते। तत्र एकस्य पुस्तकस्य भेदः अथवा व्यावृत्तिः क्रियते। केन क्रियते? विशेषणेन क्रियते। यदा नीलं पुस्तकम् इति वदामः, तत्र नीलगुणयुक्तस्य पुस्तकस्य भेदः, व्यावृत्तिः अस्माभिः क्रियते। तेन केन क्रियते? विशेषणेन क्रियते। अतः विशेषणं भेदकम् इत्युच्यते। सर्वत्रापि तथैव, बहवः बालाः सन्ति, यदा उन्नतः बालः इत्युच्यते, उन्नत इति विशेषणस्य प्रयोगः क्रियते, तत्र औन्नत्यरूपः गुणः तद्वतं तद्वन्तं बालम् अन्यैः बालैः पृथक् करोति। सो विशेषण आल्वेज सेपरेट्, इट सेपरेट ऑब्जेक्ट्स विथ अ पर्टिक्युलर एट्रिब्यूट फ्रॉम अ लार्जर ग्रुप ऑफ ऑब्जेक्ट्स। सर्वदापि विशेषणस्य तदेव कार्यम्। यत्र बहूनि द्रव्याणि सन्ति तत्र एकं वा कानिचन द्रव्याणि वा पृथक् करोति, तेषां भेदं प्रदर्शयति, तेषु एव कश्चित् गुणः काचित् क्रिया यत्किमपि अस्ति इति। अतः भेदकम्। भेद्यं किं? यत् व्यावर्त्यते, दट् विच् इस् सेपरेटेड्, विशेष्यम्। अतः भेदकं विशेषणं, भेद्यं विशेष्यम्। विशेषणवाचकं पदं समानाधिकरणेन विशेष्येण समस्यते, सः कर्मधारयसमासः इत्यर्थः। अत्र समानाधिकरण्यम् इत्यस्ति इत्यतः एव तत्पुरुषः समानाधिकरणः कर्मधारयः इत्यनेन अस्य समासस्य कर्मधारयसंज्ञा भवति। नीलम् उत्पलं नीलोत्पलम् इति प्रसिद्धम् उदाहरणम्, अथवा नीलोमेघः नीलमेघः। उत्पलं किञ्चित् पुष्पं, बहूनि उत्पलपुष्पाणि सन्ति, तेषु नीलम् उत्पलं व्यावर्त्यते। नीलम् इति भेदकम्, उत्पलम् इति भेद्यम् अथवा विशेषणं, तत्र समानाधिकरण्यमस्ति इत्यतः समासः भवति नीलम् उत्पलं नीलोत्पलम्। तत्र कर्मधारयसमासे विग्रहस्य लेखनं भिन्नेषु भिन्नासु रीतिषु भवति। नीलं च तत् उत्पलं च, नीलं च इदम् उत्पलं च, नीलम् उत्पलं, येन केनापि क्रमेण लिखन्तु समानं। तत्र विग्रहे नैर्भर्यं नास्ति, विग्रहः केवलम् अर्थबोधकः। तत्र समासे तु नील उत्पल एतयोः एव प्रवेशः भवति। कथं प्रक्रिया इति आदौ पश्यामः। नीलम् उत्पलम्, नील सु उत्पल सु इति अलौकिकविग्रहः, उभयत्रापि विभक्तिः प्रथमा एव भवति। विशेषणं विशेष्येण बहुलम् इति सूत्रेण समासः। सुपोधातुप्रातिपदिकयोः इति सुग्लुक्, आद्गुणः इत्यनेन नील उत्पल अनयोः गुणसन्धौ नीलोत्पल, पुनः सुप्रत्ययः क्रियते। नपुंसकत्वात् उत्पलशब्दस्य नपुंसकत्वात् अतो अम् इत्यनेन अमादेशः भवति नीलोत्पल अम् अमिपूर्वः इति पूर्वरूपे नीलोत्पलम् इति समस्तपदम्। अत्र बहुलम् इत्यस्ति, बहुलग्रहणस्य किं प्रयोजनम्? बहुलम् इति व्याकरणे बहुविशिष्टेषु अर्थेषु उपयुज्यते। क्वचित् प्रवृत्तिः, क्वचिदप्रवृत्तिः, क्वचिद्विभाषा, क्वचिदन्यदेव इति बहुलग्रहणस्य प्रयोजनानि उच्यन्ते। अत्र किं विशेषणं विशेषेण समस्यते इत्युक्ते, सर्वत्र समासः भवति इति न, बहुलग्रहणात् क्वचित् नित्यं समासः भवति। केषुचित् समस्तपदेषु अयं कर्मधारयः नित्यः भवति। कृष्णसर्पः बहुकालात् पूर्वमेव अस्माभिः इदमुदाहरणं दृष्टं, नित्यसमासः अनित्यसमासः इत्यस्य उदाहरणे कृष्णसर्पः इति नित्यसमासः। किमर्थं सः नित्यसमासः, कः अर्थः, कोऽपि स्मरति वा? कृष्णसर्पः इति समासस्य
कृष्णसर्पः नित्यसमासः मीन्स् एक्साक्ट्लि ओन्लि टु द कोब्रा एण्ड् कृष्णसर्पः आन् अ समास वे देन् इट् मीन्स् दट् इट्स् जस्ट् अ ब्लाक् स्नेक् एनी ब्लाक् स्नेक्
without a samasa, if you just say krishnaha sarpaha as a visheshana, if it is a plain visheshana, it is referring to any black snake. Kintu samase krute tena jatihi sarpa jati visheshaha, krishna sarpaha is a cobra and not a black snake. Atra samgya krishna sarpaha iti samya vachakah shabdah, jatihi jati visheshaha tena bodhyate, tatra विग्रहे विग्रहेण तस्य अर्थस्य भानं न भवति। यदि विग्रहः क्रियते तस्सः अर्थः न भासते। अतः कृष्णसर्पः इति नित्यसमासः, अविग्रहः, तत्र विग्रहः नास्ति। विग्रहः उच्यते किन्तु वृत्तिविग्रहयोः समानार्थकत्वं नास्ति, अतः सः नित्यसमासः। अयमेव समासः, विशेषणं विशेषेण बहुलम् इत्यनेनैव समासः, किन्तु नित्यसमासः सः। क्वचित् न, सर्वत्र सर्वदा विशेषणं विशेष्येण समासं प्राप्नोत्येव इति नियमः अपि नास्ति। कदाचित् समासः न भवति। रामो जामदग्न्यः इत्यस्ति, जामदग्न्यः रामः, कः? परशुरामः। तत्र रामः जामदग्न्यः इत्यत्र समासस्य प्रयोगः नास्ति। किमर्थं समासः न भवति इति चेत् प्रयोगः नास्ति इत्येव अर्थः। रामोजामदज्ञः इत्यादिषु पृथग् एव प्रयोगः दृश्यते, रामजामदज्ञः इति समासः तस्य प्रयोगः नास्ति। अतः बहुलग्रहणस्य वशात् यत्र यत्र प्रयोगः अस्ति तत्र समासः भवति इत्येव ज्ञातव्यम्। एतानि उदाहरणानि विरलानि। सामान्यतः अस्य समासस्य बहुत्र प्रयोगः भवति। अस्माभिः यत्र यत्र प्रयोगः क्रियते तत्र सामान्यतः अयमेव समासः भवति। सो दिस् इस् द मोस्ट् कामन् टैप् आफ् कर्मधारय समासः, विशेषणस्य विशेषेण समासः। उन्नतः बालः, उन्नतबालः, सुन्दरः पुरुषः, सुन्दरपुरुषः, महान् राजा, महाराजः, सर्वत्रापि विशेषणं विशेष्येण बहुलम्। यतोहि अत्र अन्यत् किम्, अन्यः कोऽपि नियमः नास्ति विशेषणस्य वा विशेषस्य वा, केवलं विशेषणं विशेष्येण इत्येव। अतः अयं समासः बहुत्र दृश्यते। अन्यत् सूत्रमस्ति कर्मधारयसमासस्य, उपमानानि सामान्यवचनैः इति सूत्रम्। उपमानानि इति प्रथमाविभक्तौ बहुवचनं, सामान्यवचनैः इति द्वितीयाविभक्तौ बहुवचनं, समानाधिकरणेन इति अनुवर्तते। सुप् सुपासः समासः, इदमपि कर्मधारय समासविधायकं सूत्रम्। उपमानानि, उपमानवाचकाः शब्दाः समानाधिकरणेन सामान्यवचनं नाम साधारणधर्मवाचकेन सह वा समस्यन्ते, सः तत्पुरुषः कर्मधारयः इत्यर्थः. किम् एतद् ज्ञातुम् उपमायाः सामान्यतः उपमायाः स्वरूपं ज्ञातव्यम्. उदाहरणं दीयते घन इव श्यामः घनश्यामः इति. तत्र उपमा कम्पेरिसन् यत्र दीयते तत्र चत्वारि अङ्गानि भवन्ति उपमायाः. यथा मुखं चन्द्रः इव सुन्दरम् इति वदामः. मुखं चन्द्रः इव सुन्दरम् इति उपमायाः उदाहरणम्. उपमां सर्वे जानन्ति किल, सामान्यज्ञानम् अस्ति किल उपमायाः. तत्र उपमेयः वर्ण्यः यस्य वस्तुनः वर्णना अस्माभिः क्रियते. यथा मुखं चन्द्र इव सुन्दरम् इत्युक्ते अस्माभिः मुखस्यैव वर्णनं क्रियते, न तु चन्द्रस्य. यदि चन्द्रस्य वर्णनं क्रियते तर्हि चन्द्रः किमपि इव इति तस्य वर्णनं क्रियते. अत्र तु मुखस्य वर्णनमेव अपेक्षितम्. अतः मुखम् उपमेयः, न्यूनगुणः उपमेयः. यत्र वस्तुतः मुखम् अस्ति चन्द्रः अस्ति, तयोः कः अत्यन्तं सुन्दरः? चन्द्रः एव अत्यन्तं सुन्दरः. तत् सादृश्यं मुखे अस्माभिः उच्यते इत्यतः सः मुखम् इति उपमेयः इत्युच्यते. उपमानम् द स्टाण्डर्ड् आफ् कम्पेरिसन्, येन सह उपमेयस्य तुलना क्रियते तदुपमानम्, अधिकगुणम् उपमानम्. सो दिस् इस् द स्टाण्डर्ड् वन्, न्यूनगुणः उपमेयः, अधिकगुणम् उपमानम् इति नियमः. अत्र चन्द्रः उपमानम्. उपमेय उपमानयोः सादृश्यं बोधयितुं किमपि पदम् अस्माभिः उपयुज्यते, सः उपमावाचकः, तादृश्यबोधकं पदं. यथा इव, यथा, तथा, सदृश, तुल्य, एवं बहूनि पदानि सन्ति. तत्सर्वमपि उपमावाचकः इत्युच्यते. तेन एव ज्ञायते अस्माभिः उपमा क्रियते इति ज्ञायते. उपमावाचकः शब्दः भवति, साधारणधर्मः अपि भवति. कमपि धर्मं मनसि निधाय अस्माभिः तुलना क्रियते. कः धर्मः? अत्र सौन्दर्यम् एव धर्मः. सौन्दर्यम् आश्रित्य अस्माभिः मुखस्य चन्द्रस्य च तुलना क्रियते. अर्थात् सौन्दर्यरूपः धर्मः साधारणः, मुखे अपि अस्ति चन्द्रे अपि अस्ति, उभयोः समानः, तुल्यः अथवा साधारणः. साधारणधर्मः इत्युक्ते उपमान उपमेययोः विद्यमानं सादृश्यं, यथा अत्र सुन्दरम् इति. साधारणधर्मः एव सामान्यवचनम् इति कथ्यते सूत्रे. उपमानानि सामान्यवचनैः, चन्द्रः इति उपमानं, साधारणधर्मः एव सामान्यवचनं, सुन्दरम्. उपमानानि सामान्यवचनैः समस्यन्ते. चन्द्रः इति पदं सुन्दरम् इति धर्मवाचकेन समस्यते. तदा किं भवति? चन्द्रसुन्दरं मुखम्, चन्द्रः इव सुन्दरं चन्द्रसुन्दरं, चन्द्रसुन्दरं मुखम्. तत्र चन्द्र इति उपमानं, सुन्दर इति सामान्यवचनम्, उपमानस्य सामान्यवचनेन समासः भवति. एवमेव पूर्वतन उदाहरणे घनश्यामः, कृष्णः घनः इव श्यामः इति उपमा. कृष्णः घनः, घनः इत्युक्ते मेघः, मेघः इव श्यामः. तत्र कृष्णः उपमेयः, घनः उपमानम्, उभयोः सामान्यवचनं, साधारणधर्मः श्यामत्वं, कार्ष्ण्यम् एव साधारणधर्मः. अतः घन इति उपमानं, श्याम इति साधारणधर्मवाचकेन शब्देन समस्यते. सः कर्मधारयः, घन इव श्यामः घनश्यामः. अत्र उपमानवाचकस्य साधारणधर्मवाचकस्य च समासः भवति. घन इव श्यामः, तत्र इव इत्यस्य समासे प्रवेशः नास्ति. समासे अलौकिकविग्रहः तु घनसु श्यामसु इत्येव. इव इति घनशब्देनैव लक्षणया बोध्यते इति अस्माकं नियमः. घनसदृशः श्यामः इत्यर्थः. अत्र घनशब्दस्यैव घनसदृशः इत्यर्थः. अतः इव इत्यस्य अलौकिकविग्रहे प्रवेशः नास्ति. केवलं लौकिकविग्रहे सादृश्यं बोधयितुं प्रयोगः क्रियते. अलौकिकविग्रहः तु घन सु श्याम सु इत्येव. उपमानानि सामान्यवचनैः इत्यनेन समासः. सुपोधातुप्रातिपदिकयोः सुप्रत्ययः तस्य ऋत्वं विसर्गः. घनश्यामः. अन्यानि उदाहरणानि पश्यामः चेत् कुसुमकोमलं हृदयं. कुसुमम् इव कोमलं. सॉफ्ट् लैक् द फ्लावर्. तत्र कुसुमम् उपमानं. कोमल इति साधारणधर्मः. कुसुमस्य हृदयस्य च मध्ये सामान्यवचनं भवति कोमल इति. मेघगम्भीरा वाणी. सो एज डीप एज द गंभीर इज वेरी एज द साउंड ऑफ थंडर. सो अत्र मेघशब्देन मेघस्य निर्घोषः उच्यते. मेघः इव गंभीरा. मेघगंभीरा वाणी. वज्रकठिनं मनः. सो इट इज ऑपोजिट ऑफ कुसुमकोमलम्. वज्रम इव कठिनम्. वज्रम उपमानम्. कठिनम् साधारणधर्मः. व्याघ्रभयङ्करः पुरुषः. व्याघ्रः इव भयङ्करः. व्याघ्रः उपमानम्. भयङ्करत्वम् साधारणधर्मः. स्फटिकशुभ्रा नदी. प्योर एज क्रिस्टल. तत्र स्फटिकम् इव शुभ्रा. स्फटिकशब्दः उपमानवाचकः. शुभ्रशब्दः साधारणधर्मवाचकः. एतानि सर्वाणि उपमानानि सामान्यवचनैः इत्यस्य उदाहरणानि. एवञ्च कर्मधारयसमासस्य सूत्रद्वयमधीतं. विशेषणं विशेष्येण बहुलम्. उपमानानि सामान्यवचनैः. अन्यान्यपि सूत्राणि सन्ति. वस्तुतः अष्टाध्याय्यां 20 अधिकानि सूत्राणि सन्ति कर्मधारयसमासविधायकानि. तत्र सूत्रद्वयमेव लघुसिद्धान्तकौमुद्यां निविष्टमस्ति. तृतीयं वार्तिकमेकम् उच्यते. मध्यमपदलोपी समासः इति कश्चित् समासः अस्ति. तत् वार्तिकेन सिद्ध्यति. सः समासः वार्तिककारेण दीयते. शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्य उपसङ्ख्यानम् इति वार्तिकम्. तत्र शाकपार्थिवादिः इति कश्चित् गणः, आकृतिगणः. तत्र ये ये शब्दाः सन्ति तेषां निष्पत्त्यर्थं समासः क्रियते. कर्मधारयसमासः समानाधिकरण्यमस्ति. तत्र एकस्य पदस्य लोपः अपि क्रियते. अस्माभिः सः समासः मध्यमपदलोपी समासः इत्युच्यते. वार्तिककारेण उत्तरपदलोपः इति उच्यते. तत्र किं भवति इत्युक्ते पूर्वम् अन्यः कश्चित् समासः भवति. समस्तपदस्य पुनः कर्मधारयसमासः क्रियते. समस्तपदस्य यत् उत्तरपदं तस्य लोपः भवति. उदाहरणं पश्यामः चेत् बहु सरलं. शाकप्रियः पार्थिवः इत्यस्ति. शाकप्रियः इति विशेषणं. पार्थिवः इति विशेष्यं. शाकप्रियः पार्थिवः इति कर्मधारयसमासः. तत्र शाकप्रियपार्थिवः इति वस्तुतः भवेत्. तत्र उत्तरपदलोपः. कस्य पूर्वं शाकप्रियः इति यः समासः तत्र यदुत्तरपदं नाम प्रिय इति शब्दः तस्य लोपः भवति. अतः शाकपार्थिव शाकपार्थिवः. एवमेव देवपूजकः ब्राह्मणः. देवपूजकः इति समासः. तस्य कर्मधारयसमासे कृते उत्तरपदस्य पूजक इत्यस्य लोपः भवति. देवब्राह्मणः. विग्रहवाक्यं यदा वयं पश्यामः शाकप्रियपार्थिव तत्र मध्यमपदस्य लोपः इति मत्वा वयं मध्यमपदलोपी समासः इति व्यवहरामः. तत्र वस्तुतः పూర్వతన సమాసస్య ఉత్తరపదలోపః ఉచ్యతే. దేవ పూజక బ్రాహ్మణ తత్ర పూజక ఇది మధ్యమస్య పదస్య లోపః క్రియతే. దేవ బ్రాహ్మణః ఇది సమాసః. ప్రక్రియాం పశ్యామః చేత్ సమాసద్వయం భవతి. శాకాని ప్రియాణి యస్య సః, హి హు లైక్ వెజిటబుల్. శాకప్రియః ఇది బహువ్రీహి సమాసః. శాకప్రియః చ అసౌ పార్థివశ్చ, శాకపార్థివః ఇత్యత్ర కర్మధారయ సమాసః. సో ఆదౌ బహువ్రీహిః శాక జస్ ప్రియ జస్, శాకాని ప్రియాణి యస్య సః అనేకమన్య పదార్థే ఇది బహువ్రీహి సమాసః. తత్ర సుపోధాతు ప్రాతిపదికయోః ఇతి సుబ్లుకి శాకప్రియ ఇతి భవతి. ఇదానీం శాకప్రియ సు పార్థివ సు, అత్ర సమాసః విశేషణం విశేషేణ బహుళం ఇత్యనేనైవ సమాసః. శాకప్రియ సు పార్థివ సు, అత్ర పునః సుపోధాతు ప్రాతిపదికయోః ఇతి లుకి శాకప్రియ పార్థివ ఇత్యస్తి. అధునా అనేన వార్తికేన శాకపార్థివాదీనాం సిద్ధయే ఉత్తరపదలోపస్య ఉపసంఖ్యానం ఇతి వార్తికేన ప్రియ ఇతి ఉత్తరపదస్య లోపే శాకపార్థివ ఇతి సిద్ధ్యతి. తత్ర సుప్రత్యయః క్రియతే తస్య రుత్వే విసర్గే శాకపార్థివః. బహూని ఉదాహరణాని భవంతి. ఏవమేవ దేవబ్రాహ్మణః ఇత్యుక్తే ఆదౌ దేవానాం పూజకః దేవపూజకః, షష్ఠీ ఇత్యనేన తత్పురుష సమాసః క్రియతే. అనంతరం దేవపూజక సు బ్రాహ్మణ సు, విశేషణం విశేషేణ బహుళం ఇతి సమాసః. దేవపూజక బ్రాహ్మణ తత్ర వార్తికేన పూజక ఇత్యస్య లోపే దేవబ్రాహ్మణ ఇతి భవతి. కానిచన అన్యాని ఉదాహరణాన్ని పశ్యామః అస్య సమాసస్య. ఛాయా ప్రధానః తరుః ఛాయాతరుః. ఛాయాతరుః అ షేడ్ ట్రీ ఇత్యుక్తే యత్ర ఛాయా ఏవ ప్రధానం ఇత్యుక్తే తస్య ఛాయా ఏవ భవతి వా, తత్రాపి పర్ణాన్ని భవంతి పుష్పాణి భవంతి ఫలాన్ని భవంతి సర్వమపి భవత్యేవ, కింటు ఛాయా తత్ర ప్రధాన ఇత్యతః ఛాయాతరుః ఇత్యుచ్యతే. స్నిగ్ధఛాయాతరుషు వసతిం రామగిర్యాశ్రమేషు. మేఘదూతే ప్రయోగః. ఛాయాతరుః ఇత్యుక్తే ఛాయా ప్రధానః తరుః ఛాయాతరుః. పర్ణశాల హర్మిటేజ్, పర్ణనిర్మితా శాల, పర్ణైః నిర్మితా పర్ణనిర్మితా, పర్ణనిర్మితా శాల పర్ణశాల. తత్ర నిర్మిత ఇత్యస్య లోపః. అర్థమాశ్రిత్యేవ వస్తుతః ఏతద్ జ్ఞాతవ్యం. అస్మాభిః ప్రయోగే సమస్త పదం ఏవ లభ్యతే. కాళిదాసః విగ్రహం లిఖితవాన్ ఛాయా ప్రధానః తరుః ఛాయాతరుః ఇతి. తేన ఛాయాతరుః ఇతి ప్రయోగః కృతః. తస్య అర్థం వయం కథం వదామః ఇతి చేత్, ఏవం వచనే సః అర్థః సంగచ్ఛతే. విగ్రహః సర్వదా అర్థజ్ఞానార్థం, అతః అర్థానుగుణం విగ్రహః వక్తవ్యః. అత్రాహం యత్కిమపి మధ్యమపదం స్థాపయామి. ఛాయాప్రియః తరుః ఛాయాతరుః, యథా శాకప్రియః పార్థివః తథా ఛాయాప్రియః తరుః ఇతి కథయితుం శక్యతే వా? తేన తస్య అర్థస్య బోధః న భవతి. యత్ పదం లుప్తం తత్ కిం ఇతి వయం కథం జానీమః. ప్రయోగే పర్ణశాల ఇత్యస్తి. తత్ర పర్ణనిర్మితా శాల ఇతి అర్థం ఆశ్రిత్య అస్మాభిః విగ్రహః క్రియతే. తత్ర ఇదమేవ పదం భవేత్ ఇతి నాస్తి. పర్ణకృతా శాల పర్ణశాల ఇత్యపి వదంతు, తత్ర దోషః నాస్తి. యావతా తస్య అర్థస్య భంగః న భవతి తావతా విగ్రహే నైర్భర్యం నాస్తి. ఘృతఘటః ఘృతపూర్ణః ఘటః ఘృతఘటః. సో అ పాట్ ఫిల్డ్ విత్ ఘీ ఘృతఘటః. అత్రాహం ఘృతనిర్మితః ఘటః ఇతి వదామి చేత్ హాస్యాస్పదం భవతి. ఘృతేన ఘటస్య నిర్మాణం న భవతి. అతః యద్యపి ఘృతఘటః ఇత్యస్తి తస్య అర్థస్య అనుగుణం అస్మాభిః విగ్రహః వక్తవ్యః. పరశురామః పరశుప్రహరణః రామః పరశురామః. परशुः प्रहरणं यस्य सः, प्रहरणं नाम आयुधं, यस्य आयुधं परशुः सः परशुप्रहरणः, तादृशः रामः परशुरामः। शाखामृगः वानरः, वानरस्य शाखामृगः इति नाम। किमर्थं सः शाखामृगः? शाखा प्रसक्तः मृगः, दट् विच् इस् प्रसक्तः, अटाच्ड् टु द ब्राञ्चस्, यः वृक्षस्य शाखाभ्यः लम्बते, तादृशः मृगः शाखामृगः, अतः वानरस्य शाखामृगः इति नाम। एतानि सर्वाणि मध्यमपदलोपीसमासस्य उदाहरणानि। अत्र समासविधानं सर्वत्र विशेषणं विशेष्येण बहुलम् इत्यनेनैव समासः, तत्र मध्यमपदस्य लोपः वार्तिकेन क्रियते। शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्य उपसङ्ख्यानम् इति वार्तिकेन। प्रश्नाः सन्ति वा? अग्रे गच्छामः। नीरज भगिनी,
भगिनी चन्द्रशेखरः इस् आल्सो लैक् दिस्?
तत्तु सामान्यं बहुव्रीहिः एव, चन्द्रः शेखरं यस्य सः, शेखरे सः।
ऐ थाट् वन् हू इस् वेरिङ्ग् द मून् समथिङ्ग् लैक् दट् नो?
आ, किन्तु बहुव्रीहिणा एव सिद्ध्यति, चन्द्रः शेखरे यस्य सः, चक्रपाणिः चक्रं पाणौ यस्य सः, यस्य पाणौ चक्रं भवति, यस्य शेखरे चन्द्रः भवति। यत्र बहुव्रीहिणा न सिद्ध्यति तत्र इयं रीतिः आश्रियते। कः समासः कर्तव्यः इत्यत्र अर्थः एव प्रधानम्। अयं समासः, दिस् इस् नाट् अ रेग्युलर् समासः, सर्वत्र एवं करणीयम् इति नास्ति। यत्र सामान्यसमासेन सः अर्थः न सिद्ध्यति तत्रैव अस्य समासस्य आश्रयणं क्रियते। यथा परशुः इत्यस्ति, रामः इत्यस्ति, अनयोः कथं समासं वदामः? परशोः रामः वा? सः परशोः न, परशुः रामः यस्य इत्यादि अपि वक्तुं न शक्यते। एवं यत्र क्लेशः अस्ति तत्रैव अस्य समासस्य आश्रयणम्। यत्र तु सामान्यसमासेन अस्माकम् अर्थः सिद्ध्यति तत्र अस्य आवश्यकता नास्ति। अग्रे नञ् तत्पुरुषः अस्ति, सरलः समासः, अतः पठामः। नञ् इत्येव सूत्रं, सरलं सूत्रं, नञ् सुपासः समासः तत्पुरुषः इति अनुवर्तते। विधिसूत्रं नञ् तत्पुरुषसमासः अनेन विधीयते। नञ् सुपासः समस्यते, नञ् इति अव्ययम् अस्ति, तत्र ण्यकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, प्रयोगे तु न इत्येव श्रूयते, तस्य मूलरूपं भवति नञ् इति। यथा कृ इति धातुः इति वदामः, मूलधातुः तु दुकृञ् करणे इति धातुः, एवं न इति यदस्ति तत्र मूलम् अव्ययं भवति नञ् इति, तत्र ण्यकारस्य इत्संज्ञा भवति, अतः न इत्यस्य समर्थेन सुबन्तेन सह समासः भवति। यदा न इत्यस्य समासः भवति झटिति अन्यत् सूत्रमपि प्रवर्तते, नलोपो नञः इति सूत्रम्। नलोपः इति प्रथमा विभक्तिः, नञः इति षष्ठी, उत्तरपदे इत्यधिकारः। पूर्वमपि उक्तमस्ति, षष्ठाध्याये तृतीयपादे अलुगुत्तरपदे इति अधिकारः, अतः समासकार्याणि एव भवन्ति तत्र। आदौ प्रायः त्रयोविंशतिः सूत्राणि अलुक् समासविधायकानि, अन्यत् सर्वम् उत्तरपदे परे पूर्वपदस्य यत् कार्यं भवति, पूर्वपदस्य विशिष्टानि कार्याणि तस्मिन् पादे उच्यन्ते। अनेन विधिसूत्रेण न लोपः, नकारस्य लोपः विधीयते. नञ् इत्यत्र यः नकारः तस्य लोपः विधीयते. नञः नस्य लोपः उत्तरपदे. सो वेन्नेवर् नञ् इस् फालोड् बै एनी उत्तरपद तस्य नकारस्य लोपः भवति इत्यर्थः. न ब्राह्मणः अब्राह्मणः इति उदाहरणम्. अत्र न ब्राह्मणः प्रक्रियां पश्यामः. नञ् सु ब्राह्मण सु इति विग्रहः. नञ् इति समासः सुबोधातुप्रातिपदिकयोः इति सुब्लुकि. न ब्राह्मण इदानीम् अत्र उत्तरपदे परे नञ् इत्यत्र यः नकारः तस्य लोपः. लोपे अ इति शिष्यते. न लोपो नञः इति नकारस्य लोपः. अब्राह्मणः सुप्रत्ययः तस्य रुत्वं विसर्गः. न धर्मः अधर्मः सर्वमपि नैतत्पुरुषस्य भूरिशः उदाहरणानि भवन्ति. सर्वत्रापि नकारस्य लोपः भवति. बहु सुलभं. सम् थिङ्ग्स् आर् आल्सो ईजि इन् व्याकरणम्. सो तस्मान् नुडचि इति अग्रिमं सूत्रम्. अत्र विशेषः अस्ति न धर्मः अधर्मः. न आचारः अनाचारः इत्युच्यते. तदर्थम् अपरं सूत्रमस्ति तस्मान् नुडचि इति. सो दिस् इस् इमीडियट्लि आफ्टर् नलोपो नन्यः. सो तदनन्तरं तस्मात् इति पञ्चमी. नुट् इति प्रथमा. अचि इति सप्तमी. उत्तरपदे इत्यधिकारः. अत्र नुट् इति आगमस्य विधानं क्रियते. नुट् इत्युक्ते नकारागमः. आगमः त्रिविधः भवति. तित् कित् मित् इति. तत्र अयं तित् आगमः. नुट् इत्यत्र नकारः वस्तुतः आगमः. उकारः उच्चारणार्थः. तकारः इत्सम्यकः. तस्मात् इत्युक्ते किम्? लुप्तनकारात् नञः. वयं नञ् समासं कुर्मः. समासे कृते नकारस्य लोपं कुर्मः. तदनन्तरं नञः उत्तरपदस्य अजादेः. यदि उत्तरपदम् अजादि भवति. अजादि अच् आदौ यस्य. स्टार्टिङ्ग् वित् अन् अच् वित् अ स्वर. तदा नुट् इति आगमः भवति. आद्यन्तौ टकितौ इति नियमः अस्ति. यः टित् आगमः सः आदौ भवति. अतः उत्तरपदस्य आदौ एकः नकारः योज्यते इत्यर्थः. न अश्वः अनश्वः. नञ् सु अश्वसु इति समासः सुपोधातुप्रातिपदिकयोः. नलोपो नञः इत्यनेन नकारस्य लोपे अ अश्व इत्यस्ति. इदानीम् अश्व इति अजादि उत्तरपदम्. अतः उत्तरपदस्य आदौ नकारस्य योजनं क्रियते. अ न अश्व. तस्मान् नुडचि इत्यनेन नुडागमः. अतः अनश्व इति भवति. अत्र विसर्गः न भवेत्. अ न अश्व. अनश्व सु ऋत्वे विसर्गे अनश्वः. अनाचारः अनुत्पन्नम् अनिन्द्रियम्. यत्र कुत्रापि यदि अजादि उत्तरपदं भवति तर्हि अन् इति भवति. यदि हलादि उत्तरपदं तदा केवलम् अ इति भवति. नलोपोनन्यः इत्यनेन नकारस्य लोपः. यदि अजादि उत्तरपदं तदा अन् इति भवति. नलोपोनन्यः इत्यनेन नञः नकारस्य लोपः. अनन्तरं उत्तरपदस्य आदौ अन्यस्य नकारस्य आगमः इति अन् इति भवति. उदाहरणानि बहुधा सन्ति. न धर्मः अधर्मः. न आचारः अनाचारः. न विद्या. व इति हल्. अतः अविद्या. न ईश्वरः अनीश्वरः. अन् ई इति अजादि. न एकम् अनेकम्. सर्वत्रापि अ अथवा अन्. यदि अ तत्र केवलं नलोपोनयः. यदि अन् तत्र नलोपोनयः. तस्मान् नुडचि इति नुडागमः अपि भवति. अत्र एकः विषयः विशेषः अत्र अस्ति. कदाचित् समासे नैकधा इति प्रयोगः अस्ति. नैकधा, नैके इत्यादि प्रयोगाः सन्ति. तत्र कथं न एकधा इत्यस्ति, तत्र किं करणीयं? वस्तुतः न लोपो नन्यः इत्यनेन नकारस्य लोपः, तस्मान् नुडसि इति नुडागमे अनेकधा इति भवेत्. यथा न एकम् अनेकम्, एवं न एकधा अनेकधा इति समासः भवेत्. नैकधा इति प्रयोगः श्रूयते रामायणे, महाभारते, सर्वत्रापि प्रयोगः अस्ति. तान् शरान् शरवर्षेण रामश्चिच्छेद नैकधा, नैकधा चिच्छेद इति वाल्मीकिरामायणे अस्ति. एष पञ्चतमाहारः शरीरमपि नैकधा इति महाभारते अस्ति. सर्वत्र प्रयोगः अस्ति. नैकधा इति कथं भवति? समासः कृतः अस्ति, किन्तु अत्र नैक इत्यस्ति, न एकम् अनेकं. वस्तुतः अत्र न एक नैक, तस्मात् धा विधार्थे धा प्रत्ययः. अयं समासः केवलं न एकधा इति न, न एकं नैकं, नैकं विधम् इत्यर्थे नैकधा इति प्रत्ययः. अत्र कथम् इति चेत्, नैकधा इत्यादौ तु न शब्देन सह सुप्सुपा इति समासः इति समाधानं दीयते. किम् इत्युक्ते, नञ् इति एकम् अव्ययमस्ति अस्माभिः दृष्टं, सामान्यतः सर्वत्र सः एव. न इति अपि एकम् अव्ययम् अस्ति इति वदन्ति. एतत्तु वैयाकरणानां समर्थनमेव, अस्माभिः प्रयोगे न ज्ञायते. किन्तु एवं प्रयोगान् समर्थयितुम् अस्माभिः किमुच्यते? नञ् इति एकम् अव्ययं, यत्र ण्यकारः इत्सम्यकः अस्ति. न इत्येव एकम् अव्ययम् अस्ति. उभयोः अर्थः समानः. यदा नञ् इत्यनेन समासः क्रियते, तदा नलोपो नञः इत्यनेन नलोपः, तस्मान् नुडचि इत्यादि सर्वं भवति. यदा तु न इत्यनेन समासः क्रियते, तत्र नलोपः न भवति. किमर्थं? नलोपः नञः इति विशिष्य यत्र ण्यकारः इत्सम्यकः अस्ति, तत्रैव नलोपः विहितः. केवलं न इत्यनेन सह समासः क्रियते चेत् नलोपः न भवति. न शब्देन समासे नलोपः अपि न भवति, नुडागमः अपि न भवति. किन्तु न शब्देन समासः कथम्? सूत्रमस्ति नञ्, नञ् सुबन्तेन समस्यते इत्येव समासविधायकं सूत्रं किल इति चेत्, सः सुपा केवलसमासः अस्माभिः आदौ एव अधीतः. यत्र प्रयोगः अस्ति, एवं चेत् अहं सर्वत्र न इत्यनेनैव समासं करोमि इति चेत् न. प्रयोगाः सन्ति, नञ् तत्पुरुषस्य प्रयोगाः बहु अधिकाः. अधर्मः, अनाचारः इत्यादीनां सिद्ध्यर्थं नञ् समासः आवश्यकः एव. सामान्यतः सर्वत्रापि नकारस्य लोपः भवति, अजादेः नुडागमः अपि भवति. कदाचित् तु एतादृशाः प्रयोगाः यत्र सन्ति, नैकधा इत्यादि प्रयोगाः, तत्र तस्य प्रयोगस्य समर्थनार्थं न इति अव्ययेन समासः, तत्र सहसुपा इति केवलसमासः, न तु नञ् समासः, अतः तत्र लोपः नास्ति. न एकधा नैकधा इति उच्यते. वेरि रेर् केस् यत्र प्रयोगः अस्ति, तत्रैव सामान्यतः नञ् तत्पुरुषः एव क्रियते. अद्य वयं कर्मधारयसमासमधीतवन्तः. कर्मधारयसमासस्य सामान्यसूत्रमस्ति विशेषणं विशेष्येन बहुलम्. विशेषणं समानाधिकरणेन विशेषणेन समस्यते. उपमानानि सामान्यवचनैः, उपमानवाचकस्य शब्दस्य साधारणधर्मवाचकेन शब्देन समासः भवति. उत्तरपदलोपः, मध्यमपदलोपी समासः. कदाचित् कर्मधारयसमासे तत्र मध्यस्य पदस्य, पूर्वपदस्य यदुत्तरपदं, तस्य लोपः भवति, वार्तिकेन ज्ञातम्. नञ् समासे समासविधायकं सूत्रमेकमेव, नञ् इति. तत्र नलोपो नञः इत्यनेन सर्वत्रापि नञ् समासे कृते झटिति नकारस्य लोपः क्रियते. लोपे कृते तस्मान् नुडति इत्यनेन यदि अजादि उत्तरपदमस्ति तर्हि तत्र नकारागमः भवति अतः प्रयोगे अन् इति श्रूयते प्रश्नाः विशेषणं विशेषेण बहुलम् अस्य अर्थं सोदाहरणं विवृणुत उपमानानि सामान्यवचनैः नयि तत्पुरुषं ससूत्रं सोदाहरणं विवृणुत चिह्नितानां समस्तपदानां विग्रहं विलिख्य समाससूत्रं निर्दिशत अद्य अधीतमेव इति नास्ति एतावता अधीतानां सर्वेषामपि समासानां भवति यत् नीलवर्णे अस्ति तस्य विग्रहः लेखनीयः केन सूत्रेण समासः विग्रहवाक्यं समासविधायकं सूत्रम् अष्टौ वाक्यानि सन्ति एतेषां वाक्यानां विग्रहवाक्यं समाससूत्रं च लिखन्तु एतत्तु श्वः चर्चां कुर्मः लेखनम् अग्रिमसप्ताहे कृत्वा प्रेषयन्तु कोऽपि प्रश्नः अस्ति वा नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्